ओम नमो भगवते वासुदेवाय। अथ नवमोऽध्यायः। श्री शुक उवाच। एकदा गृहदासीषु यशोदानन्दगेहिनी कर्मान्तरणियुक्तासु निर्ममन्थ स्वयं दधि। यानि यानि ह गीतानि तद्बालचरितानि च दधिनिर्मन्थने काले स्मरन्ति तान्यगायत। क्षौमं वासः पृथुकटितटे बिभ्रति सूत्रनद्धम्। पुत्रस्नेहस्नुतकुचयुगम् जातकम्पम् च शुभ्रूः। रज्ज्वाकर्षश्रमभुजचलत् कङ्कणौ कुण्डले च। स्विन्नम् वक्त्रम् कबरविगलन् मालती निर्ममन्थ। ताम् स्तन्यकाम आसाद्य मथनन्तीम् जननीम् हरिः। गृहीत्वा दधिमन्थानम् न्यषेधत्प्रीतिमावहन्। तमङ्कमारूढमपाययत्स्तनम् स्नेहस्नुतम् सस्मितमीक्षति मुखम्। अतृप्तमुत्सृज्य जवेन सायया उत्सिच्यमाने पयसि त्वधिश्रिते। सञ्जातकोपः स्फुरितारुणाधरम् सन्दस्य दद्भिर्दधिमन्थभाजनम्। भित्त्वा मृषाश्रुर्दृषदस्मनारहो जघास हैयङ्गवमन्तरङ्गतः। उत्तार्य गोपी सुश्रितम् पयः पुनः प्रविश्य सन्दृश्य च दध्यमत्रकम्। भग्नम् विलोक्य स्वसुतस्य कर्म तज्जहासतम् चापि न तत्र पश्यति। उलूखलाङ्ग्रेरुपरि व्यवस्थितम् मर्काय कामम् ददतम् शुचिस्थितम्। हैयङ्गवम् चौर्यविशङ्किते क्षणम् निरीक्ष्य पश्चात् सुतमागमच्छनैः। तामात्तयष्टिम् प्रसमीक्ष्य सत्वरस्ततो वरुह्यापससारभीतवत्। गोप्यन्वधावन्नयमापयोगिनाम् क्षमम् प्रवेष्टुम् तपसेरितम् मनः। अन्वञ्चमाना जननी बृहच्चलच्छ्रोणी भराक्रान्तगतिः सुमध्यमा। जवेन विस्रंसितकेशबन्धनच्युतप्रसूनानुगतिः परामृशत्। कृतागसम् तम् प्ररुदन्तमक्षिणी कर्षन्तमञ्जन्मषिणी स्वपाणिना। उद्वीक्षमाणम् भयविह्वलेक्षणम् हस्ते गृहीत्वा भिषयन्त्यवागुरत्। त्यक्त्वा यष्टिम् सुतम् भीतम् विज्ञायार्भकवत्सला। येष किल तम् बद्धुम् दाम्ना तद्वीर्य को विदा। न चान्तर्न बहिर्यस्य न पूर्वम् नापि चापरम्। पूर्वापरम् बहिश्चान्तर्जगतो यो जगच्चयः। तम् मत्वात्मजमव्यक्तम् मर्त्यलिङ्गमधोक्षजम्। गोपिको लूखले दाम्ना बबन्ध प्राकृतम् यथा। तद्दामबध्यमानस्य स्वार्भकस्य कृतागसः। द्व्यङ्गुलोन्नमभूत्तेन सन्दधेऽन्यच्च गोपिका। यदासीत् तदपि न्यूनम् तेनान्यदपि सन्दधे। तदपि द्व्यङ्गुलम् न्यूनम् यद्यदा दत्तबन्धनम्। एवम् स्वगेहदामानि यशोदा सन्दधत्यपि। गोपीनाम् सुस्मयन्तीनाम् स्मयन्ती विस्मिता भवत्। स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः। दृष्ट्वा परिश्रमम् कृष्णः कृपयासीत् स्वबन्धने। एवम् सन्दर्शिता इयङ्ग हरिणा भृत्यवश्यता। स्ववशेनापि कृष्णेन यस्येदम् सेश्वरम् वशे। नेमम् विरिञ्चो न भवो न श्रीरप्यङ्ग संश्रया। प्रसादम् लेभिरे गोपी यत्तत्प्राप विमुक्तिदात्। नायम् सुखापो भगवान् देहिनाम् गोपिका सुतः। ज्ञानिनाम् चात्मभूतानाम् यथा भक्तिमतामिह। कृष्णस्तु गृहकृत्येषु व्यग्रायाम् मातरि प्रभुः। अद्राक्षीदर्जुनौ पूर्वम् गुह्यकौ धनदात्मजौ। पुरा नारदशापेन वृक्षताम् प्रापितौ मदात्। नलकूबरमणिग्रीवा वितिख्यातौ श्रियान्वितौ। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे गोपीप्रसादो नाम नवमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्। यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।